अयं विश्वसंवादकेन्द्रविदर्भस्य वार्ताकक्षः, प्रवाचकः शास्त्रीस्वामीनारायणजोषिः। अद्यतिथि चैत्रशुक्लदशमी, कलियुगाब्द चत्वारिंशतोऽधिकशतोत्तरपञ्चसहस्रम्। सम्प्रति वार्ताः श्रूयन्ताम्। राष्ट्रियवार्ताः। प्रधानमन्त्री मोदी यः ट्वीट् कृत्वा यदा कृषकः समृद्धः भवति तदैव राष्ट्रमपि समृद्धः भवति इति उक्तवान्। सः भारतीयकृषकाणाम् अभिनन्दनम् आभारप्रदर्शनं च कृतवान्। विद्युतवाहनानां विक्रणे अस्मिन् आर्थिकवर्षे त्रिगुणितवर्धनम् आसीत् इति फेडरेशन् आफ् वेहिकल् डीलर्स् उद्घोषितवान्। दशमीकक्षापर्यन्तं हिन्दीभाषायाः अनिवार्यताम् ईशान्यभारतस्य विरोधः अस्ति इति आसाम साहित्यसङ्घस्य सभायाम् अध्यक्षवक्तव्यः। सीताराम येचुरीवर्यः अस्मिन् वर्षे तृतीयवारं मार्क्स्वादी कम्युनिस्टपक्षस्य महासचिवपदम् आरूढवान् इति राष्ट्रियवार्ताः। अन्ताराष्ट्रियवार्ताः। यदा काश्मीरवादस्य निवारणं भवति तदानीमेव वयम् अन्येषु विषयेषु भारतेन सह चर्चां कुर्मः इति पाकिस्तानस्य पूर्वप्रधानमन्त्री शाहबाज शरीफस्य वक्तव्यम्। चीनदेशे षष्टिलक्षोत्तरद्विकोटिजनाः अन्नवञ्चिताः। अस्मिन् देशे पञ्चप्रमुखनगरेषु जनाः बन्धिताः। श्रीलङ्कादेशानन्तरं नेपालदेशस्य अर्थव्यवस्था अपि सङ्कटेषु अस्ति। आयातनिर्यातव्यवस्थयोः शासनेन प्रतिबन्धाः स्थापिताः इति अन्ताराष्ट्रियवार्ताः। राज्यस्तरीयवार्ताः। पञ्चनवतितमम् अखिलभारतीयमराठीसाहित्यसम्मेलनम् एप्रिल् मासस्य द्वयोविंशतिदिनाङ्कतः चत्वारिंशत्दिनाङ्कपर्यन्तम् उद्गीरनगरे भविष्यति इति साहित्यसङ्घस्य अध्यक्षभाषणम्। शरदपवारवर्यस्य सिल्वर् ओक निवासस्थाने पादुकाक्षेपणप्रसङ्गे एस् टि महामण्डलस्य नवोत्तरशतकर्मचारिणः तेषां सेवाभिः निष्कासिताः इति राज्यस्तरीयवार्ताः। सङ्घहिन्दुत्वयोः वार्ताः। गुजरातप्रान्ते रविवासरे श्रीरामशोभायात्रायां मुस्लिमजनाः प्रस्तरखण्डैः क्षेपयित्वा बहवः भक्तान् हतवन्तः। अस्मिन् हिंसाचारे पोलिसविभागस्य अश्रुधूमेन जनाः नियन्त्रिताः जाताः। मांसभक्षणकारणेन अखिलभारतीयविद्यार्थिपरिषदः कार्यकर्तारः अस्मान् आक्रमितवन्तः इति आरोपः जे एन् यू विद्यार्थिनः स्थापितवन्तः। कुतुब् मिनार् परिसरे सप्तविंशतिमन्दिराणां पुनर्निर्माणस्य घोषणा विश्वहिन्दुपरिषदः कृतवान्। राष्ट्रियस्वयंसेवकसङ्घः अस्मिन् आम्बेड्करजयन्तौ दलितान् योजयितुं नूतन अभियानस्य शुभारम्भः करोति। राष्ट्रियस्वयंसेवकसङ्घः समाजे धार्मिकद्वेषस्य बीजं सिञ्चति इति आरोपः ज्येष्ठगान्धिवादी डाक्टर् अभयवङ्गेन कृतः, यः श्रीरामनवम्याः शुभावसरे राष्ट्रियस्वयंसेवकसङ्घस्य विदर्भप्रान्तस्य नूतनकार्यालयस्य उद्घाटनं प्रान्तकार्यवाहः माननीयदीपक्जी तामशेट्टिवारः कृतः। नाग्पुरस्थित हेडगेवारभवनपरिसरे अस्य कार्यालयस्य उद्घाटनं जातः इति सङ्घहिन्दुत्वयोः वार्ताः। विदर्भविशेषवार्ताः। काश्मीर फाइल्स सादृशचित्रपटेन हिन्दुजनानाम् अस्वस्थतायाः भावना निर्माणमितुं केचिज्जनाः प्रयत्नाः करिष्यन्ति इति टिप्पणी राष्ट्रवादी कांग्रेस पक्षस्य अध्यक्षः शरदपवारः यः अमरावतौ कृतवान्। कारञ्जाग्रामस्थाः अद्य जलसंवर्धनार्थम् एकदिवसीय उपोषणं करिष्यन्ति। रामनवमी निमित्ते यवत्माळे तरुणाः एकोत्तर एकसहस्र फुट उच्चः ध्वजस्य यात्रायोजनं कृतवन्तः। आरणीग्रामे रामनवमी निमित्ते राष्ट्रियस्वयंसेवकसङ्घस्य अन्नछत्रेण भक्तगणाः सौहार्यम् अनुभूतवन्तः। नागपुरे अम्बाझर्यां जैवविविधतावाटिकायाम् अग्निज्वलनेन 20 हेक्टेयर् क्षेत्रस्य नाशः जातः। आदासा तीर्थक्षेत्रे क्रीडा व युवक कल्याण मंत्री सुनील केदारः एडवेंचर पार्क निर्माणस्य स्वीकृतिः घोषितवान्। राष्ट्रसेवायाः ध्येयं मनसि धृत्वा नागपुरस्य प्रियंका खांडेकरः भारतीय वायुसेनायां लेफ्टिनेंट पदे शोभिता। इति विदर्भ विशेष वार्ताः। शुभं भूयात्।